अथ देव्या कवचम। देवी का ये कवच देवताओं के लिए भी दुर्लभ है। जो भक्त प्रतिदिन नियम पूर्वक तीनों संध्याओं के समय श्रद्धा पूर्वक इसका पाठ करता है, उसे दैवी कला प्राप्त होती है तथा वह तीनों लोकों में कहीं भी पराजित नहीं होता। इतना ही नहीं, वह अपमृत्यु से रहित होकर 100 से भी अधिक वर्षों तक जीवित रहता है।
वायव्या मृगवाजिनी उदित्यं पातु कौमारी तैशान्यं शूलधारिणी ऊर्ध्वं ब्रह्माणि मे रक्षेत् अधस्ताद्वैष्णवी तथा एवं दश दिशो रक्षेत् चामुण्डा शववाहनां जया मे चाग्रतः पातु विजया पातु पृष्ठतः अजिता वाम पार्श्वे तु दक्षिणे च पराजिता शिवामुद्योतिनी रक्षेत् उमामूर्ध्ने व्यवस्थिता मालाधरे ललाटे च भ्रुवौ रक्षे यशस्विनी त्रिनेत्रा च गुरोर्मध्ये यमघण्टा च नासिके शङ्खिणि चक्षुषोर्मध्ये श्रोत्रयोद्धारवासिनि कपोलौकालिका रक्षेत् कर्णमूले दुशाङ्करी नासिकायां सुगन्धा च उत्तरोष्ठे च जर्जिका अधरे चामृतकला जिह्वायां च सरस्वती दन्तान् रक्षतु कौमारी कण्ठदेशे तु चण्डिका खण्डिकां चित्रघण्टा च महामाया च तालुके कामाक्षी चिवकं रक्षेत् वाचं मे सर्वमङ्गला ग्रीवायां भद्रकाली च पृष्ठभंशे धनुर्धरे नीलग्रीवावहिकण्ठे नलिकां नलकोभरि स्कन्धयोः गर्गिणी रक्षेत् बाहो मे वज्रधारिणे हस्तयोर्दण्डिणे रक्षेत् अम्बिका जाङ्घुलेषु च नृगाञ्चूलेश्वरी रक्षेत् मुक्षौ रक्षेत् कुलेश्वरी तनौ रक्षेन्महादेवी मनः शोकविनाशिनि हृदये ललिता देवी उदरे शूलधारिणि नाभौ जगामिनि रक्षेत् भुयं भुयेश्वरी तथा पूतनाकामिकामेढ्रं बुदे महिषवाहिनि पट्यां भगवती रक्षेत् जानुनि विन्ध्यवासिनि जङ्गे महावरा रक्षेत् सर्वकामप्रधायिनि गुल्मयोर्णारसिंहे च पादपृष्ठे तु तेजसि पादाङ्गुलेषु शीरक्षेत् पादाधस्तलवासिनि नखान्तष्टाकराली च केशाश्चैवोर्ध्वकेशिनि रोमकूपेषु कौबेरी त्वजं भागेश्वरी तथा रक्तमज्जावसामासा न्यस्ति मेधांसि पार्वती अन्त्राणि कालरात्रिश्च पित्तं च मुकुटेश्वरी पद्मावती पद्मकोशे कवे चूडामणिस्तथा ज्वालामुखेन ज्वाला अविद्या सर्वसन्धिषु शुक्रं ब्रह्माणि मे रक्षेत् छायां छत्रेश्वरी तथा अहङ्कारं मनोबुद्धिं रक्षेन्मे धर्मधारिणि प्राणापानं तथा व्यानम् उदानं च समानकं वज्रहस्ता च मे रक्षेत् प्राणं कल्याणशोभना रसे रूपे च गन्धे च शब्दे स्पर्शे च योगिणि सत्त्वं रजस्तमश्चैव रक्षेणारायणे सदा आयो रक्षतु वाराहि धर्मं रक्षतु वैष्णवी यशः कीर्तिं च लक्ष्मीं च धनं विद्यां च चक्रिणि गोत्रमिन्द्राणि मे रक्षेत् पशून्मे रक्ष चण्डिके पुत्रान् रक्षेन्महालक्ष्मीर्भार्यां रक्षतु भैरवे पन्थानं सुपथा रक्षेन् मार्गं क्षेमकरी तथा रायद्वारे महालक्ष्मीर्विजया सर्वतः स्थिरा रक्षाहीनं द्विजस्थानं वर्जितं कवचेन तु तत् सर्वं रक्ष मे देवि जयन्ती पापनाशिनि पदमेकं न गच्छेतु यदिच्छे शुभमात्मनः कवचेनामृतो नित्यं यत्र यत्रैव गच्छति तत्र तत्रार्थलाभश्च विजयः सार्वकामिकः यं यं चिन्तयते कामं तं तं प्राप्नोति निश्चितं परमेश्वरे अमतुलम् रात्सरे भूतले पुमान् निर्भयो जायते मर्त्यः सङ्ग्रामेश्वरपराजितः ते लोके तु भवेत् पूज्यः कवचेनावृतः पुमान् इदं तु दिव्याः कवचम् देवानामपि दुर्लभम् यः पठेत् प्रयतो नित्यम् त्रिसन्ध्यम् श्रद्धयान्वितः देवी कला भवेतस्य त्रैलोक्येश्वरपराजितः जीवेत् वर्षशतम् साग्रम् अपमृत्यो विवर्जितः नश्यन्ते यातयः सर्वे लूता विस्फोटकादयः स्थावरम् जङ्गमम् चैव कृत्रिमम् चापि यद्भिषम् अभिचाराणि सर्वाणि मन्त्रयन्त्राणि भूतले भूजराः केजराश्चैव जलयाश्चोपदेशिकाः सहजा कुलजामाला राजिनी शायिनी तथा अन्तरिक्षचरा घोरा नागिन्यश्च महाबलाः ग्रहभूतपिशाचाश्च यक्षगन्धर्वराक्षसाः ब्रह्मराक्षसवेदालाः ऊष्माण्डा वैरवादयः नश्यन्ते दर्शनातस्य कवचे हृदि संस्थिते मानो न दीर्भवेदाज्ञेयो वृद्धिकरम् वरम् यशसा वर्धते सोऽपि कीर्तिमण्डितबोधने जवे शकृशतिम् चण्डीम् पित्वा तु कवचम् पुरा यावद्भूमण्डलम् धत्ते सशैलवनकारणम् तावत् तिष्ठति मेदिन्याम् सन्ततिः पुत्रपौत्रिके देहान्ते परमम् स्थानम् यः सुरैरपि दुर्लभम् प्राप्नोति पुरुषो नित्यम् महामाया प्रसादतः लभते परमम् रूपम् शिवेन सह